अथ श्री तुलसी स्तुति वृंदावनी विश्व पावनी विश्व पूजिता पुष्पसारानंदिनी च तुलसी कृष्ण जीवनी चैव स्तोत्रनामार्थ संयुतम् यः पठेताय च संपूज्य सोऽश्वमेध फलं लभेत्। श्रीभगवानुवाच वृन्दारूपाश्च वृक्षाश्च यदैकत्र भवन्ति च विदुर्बुधास्तेन वृन्दां मत्प्रियान्तां भजाम्यहम्। पुरा बभूव या देवी त्वादौ वृन्दावने वने ते वृन्दावनीख्याता सौभाग्यान्तां भजाम्यहम्। असङ्ख्येषु च विश्वेषु पूजिताया निरन्तरम् तेन विश्वपूजिताख्याय जगत्पूज्यां भजाम्यहम्। असंख्यानि च विश्वानि पवित्राणि यया सदा ता विश्वपावनीं देवीं विरहेण स्मराम्यहम्। देवानतुष्टाः पुष्पाणां समूहेन यया विना तां पुष्पसारां शुद्धाय च द्रष्टुमिच्छामि शोकतः। विश्वे यत्प्राप्तिमात्रेण भक्तानन्दो भवेद्ध्रुवम् नन्दिनी तेन विख्याता सा प्रीता भवताद्धिमे। यस्या देव्यास्तुलानास्ति विश्वेषु निखिलेषु च तुलसी तेन विख्याता तायामि शरणं प्रियां। कृष्णजीवनरूपाया शश्वत्प्रियतमासति तेन कृष्णजीवनीति मम रक्षतु जीवनम्। इति श्रीब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे भगवत्कृता तुलसीस्तुतिः सम्पूर्णा।